మదను ప్రహార పరమం గోయమధ్యాత్మ సంగీతం వసస్తేన మోయం విగుతో మమ భవాప్యయౌ హి భూతానాం శృతౌ విస్తర్శో మదా త్వత్తః కమలపత్రాక్ష మహాత్మ్యమపి చావ్యయం ఏవమేతద్యథార్థ త్వమాత్మానం పరమేశ్వర ద్రేష్టుమేత్సామి తే రూప మైశ్వరం పురుషోత్తమ మన్యసేయది తత్సఖ్యం మయా ద్రష్టుమితి ప్రభో యోగేశ్వర తతో మేత్వం దర్శయాత్మానమవ్యయం శ్రీ భగవాన్ వాచ పశ్య మే పార్థ రూపాణి సహసోథ సహస్రశ నానావిధాని దివ్యాని నానావర్ణాకృతీని చ పశ్యాదిత్యాన్వసుర్రాస్మినౌ మరుతస్తథా బహూన్యదృష్ట పూర్వాణి పశ్యాశ్చర్యాణి భారత ఇహైకస్థం జగత్కృష్ణం పశ్యాద్య సచరాచరం మమ దేహే గుడాకేశ యచ్చాన్యద్రష్టుమిచ్చసి నతు మాం శక్యసే ద్రష్టు మనేనైవ స్వచక్షుషా దివ్యం దదామి తే చక్షు పశ్య మే యోగమైశ్వరం సంజయ ఉవాచ ఏవమోక్త్వా తతో రాజన్ మహాయోగేశ్వరో హరి దర్శయామాస పార్థాయ పరమం రూపమైశ్వరం అనేక వక్త నయన అనేకాద్భుత దర్శనం అనేక దివ్యాభరణం దివ్యానేకోద్యతాయుధం దివ్యమాల్యాంబరధరం దివ్యగంధానులేపనం సర్వాశ్చర్యమయం దేవ మనంతం విశ్వతోముఖం దివి సూర్య సహస్రస్య భవేద్యుగపదోత్థితీ భాసదిశిస్తస్య మహాత్మన తత్రైకస్థం జగత్కృష్ణం ప్రవిభక్తమనేకథా అపశ్యదేవదేవస్య శరీరే పాండవస్తదా తతస్తవేష్మయావేష్టో హృష్టరో మా ధనంజయ ప్రణమ్య శిరసా దేవం కృతాంజలిరభాషత హరియువాచ పశ్యామి దేవాస్తవ దేవదేహే సర్వాస్తథా భూత విశేష సంఘాన్ బ్రహ్మానమీశం కమలాసనస్థ త్రిశేష్ట సర్వానుర్గాస్త దివ్యాన్ అనేక బాహూ सकलेखम् पश्यामि त्वां सर्वतो नूतनम् पुनस्तवामि पश्यामि विश्वेश्वर किरीटिनं गदिनं चक्रिणं च तेजो राशिं सर्वतो दीप्तिमं पश्यामि त्वां दुर्निरीक्षं समन्ता दीप्तानुराधज्युतिमप्रमेयम् त्वमाक्षरं परमं वेदितव्यम् स्वस्य परं निधानम् स्वमाद्य शाश्वतधर्मगोप सनातनस्त्वं पुरुषो अनादिमध्यान्तमनन्तवीर्य मनन्तु शशि सूर्यमेतम् पश्यामि त्वां दीप्तभुताशवक्रम् स्वदेशावेश्वमिदं तपं या वा पृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशस्तद्भूतं रूपमोकं तवेदम् लोकत्रयं व्यधिकम् अमीहि त्वां सुरसङ्घा विशन्ति केचिद्गीताः प्राञ्जलयो विन्ति स्वस्तीत्युक्त्वा महर्षि सिद्धसङ्घा स्तुवन्ति त्वां स्तुतिभिगोष्ठदाने भूत्रादित्या वसवो ये च साध्या विश्वेस्मिनौ मरुतस्तुष्णकास्तु गन्धर्वयक्षासुरसिद्धसङ्गा वीक्षन्ति त्वां विस्मितास्तैव सर्वे रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहुपारं बहुदरं बहुदशाकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाम् नभस्त्रिसंदीप्तमलेकवर्णम् व्याप्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा विदिग्नविन्दामि शमन्त विष्णु दंष्टाकराला निशते मुखानि दृष्ट्वैव कालानलसन्निभानि जाने न लभेत शर्मा प्रसीद देवेश जगन्निवास अमित त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपाल सन्ति भीष्म पुत्रपुत्रस्तथासौ सहस्मदीयैरपि योधमूर्खै वक्त्राणि ते परमाणाविशन्ति दर्शाकरालानि भयानकानि केचिद्विलग्नादशनान्तरेषु सन्दृश्यन्ते सुनितैरुत्तमानि यथा नदीनां बहवोऽम्बुवेग समुद्रमेवाभिमुखाद्भवन्ति तथा च वामे नरलोकवीरा विशन्ति वस्त्राण्यभिविज्वलन्ति यथा प्रदीप्तं ज्वलनं त्वगङ्गा विशन्ति नाशाय समृद्धवेगा तथैव नाशाय विशन्ति लोकात् तदापि वक्त्राणि समृद्धवेगा लोलीयसे प्रसमाना समन्ताल्लोकान् समग्रान् वरणैश्वरसि तेजो हिरापूर्यजगत्समग्रम् भासस्थलोकाप्रतपन्ति आख्याहि मे को भगवानुग्ररूपो नमो जिज्ञातुमिच्छामि भवन्तु माजम् मुनि प्रजानामि तव प्रदेशम् श्रीभगवानुवाच कालोऽस्मि लोकाक्षरकृत् प्रवृद्धो लोकान् समहर्तुमिह प्रवृत्तः निशितेऽपि त्वां न भविष्यन्ति सर्वे एव च सा प्रत्यनीकेषु योगा तस्मात् त्वमुत्तिष्ठजशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मयैवेते निहता पूर्वमेव निमित्तमातं भवसव्यसाचम् द्रोणं च भीष्मं च ददद्रथं च कर्णं च भाग्यानपि योधवीरान् मया हतास्त्वं जहिमाव्यथेष्टा युद्धस्तुतासिरणे स्वपत्मा सन्देहवासु एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिदेवमानकिरीटि नमस्ते त्वा भूय एवाह कृष्णं सगद्गदं भीतभीत प्रणम्यन्वच स्थाने ऋषिकेश तव प्रकीर्त्या जगत्प्रतिष्यत्यनुरक्षसि च रक्षांसि दीपानि दिशो लभन्ति सर्वे नमस्यन्ति सिद्धसङ्घा कस्मात् तेनानमेनान् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकथे अनन्तदेवेश जगन्निवास त्वमक्षरं सदसत्तत्परम् त्वमादिदेव पुरुषः पुराणास्त्वमस्य विश्वस्य परं विधानम् युक्तासि वेद्यं च परन्ति धाम त्वया कृतं विश्वमनन्तरूपम् वायोर्यमोऽग्निर्वरुण शशाङ्क प्रजापतिस्त्वं प्रपितामहस्तु नमो नमस्ते तेस्तु सहस्वती त्वा पुनरस्य गुरो विनमो नमस्ते नमः पुरस्तादशपृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमास्त्वम् सर्वम् समाप्नोषि ततोऽसि सर्व
भगेति मात्वा प्रसदं यदोक्तम् हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदम् मया प्रमादत्वनयेन भावे
यच्च वहासः समसत्कृतोऽसि विहाय शय्यासनभोजनेषु एकोऽवाप्यच्युतसमक्षम् तच्छामदि त्वामहमप्रमे पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुत्वरीयास्त्वमोऽस्त्यव्यधिकः कुतो यो लोकत्रयेभ्य प्रतिमप्रभाव तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वामहमीश निजम् देव पुत्रस्य सदेव सख्यो प्रिय प्रियायार्हसि देव सौ अदृष्टपूर्वम् ऋषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनो मे तदेव मे दर्शय देवरूपम् प्रसीदेवेश जगन्निवास किरीटिनम् गदिनम् च गृहस्थ नेच्छामि त्वाम् द्रष्टुमहम् तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भवेश्वमूर्ते श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदम् रूपम् परम् दर्शितमात्मयोग ते गोमयम् वेश्वमनन्तमाद्यम् यन्मे त्वदज्ञेन न दृष्टपूर्वम् न वेदयज्ञाध्ययनैर्न दानैः न च क्रियाभिर्न तपोभिरूपै एवम् रूप शक्य अहम् विलोके द्रष्टुम् त्वदन्येन कुरु प्रवीय मातेभ्यधामास्य विमूढभावो दृष्ट्वा रूपम् घोरमे दृङ्गमेदम् व्यपीतभिप्रीतमना पुनस्त्वम् तदेव मे रूपमिदम् प्रपश्य सञ्जय उवाच एत्यर्जुनम् वासुदेवस्तथोक्त्वा स्वकम् रूपम् दर्शयामास भूय आश्वासयामास च भीतमेनम् भूत्वा पुनः सोऽव्यवपूर्णमात्मा अर्जुन उवाच दृष्टेदम् मानुषम् रूपम् तव सोम्यम् जनार्दन शिवानेमस्मि संवृत्तः सुचेतः प्रकृतिं गतः श्रीभुवनवच सुदूरदर्शनिदं रूपं दृष्टवानसि यन्मना देवाप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणा नाहं वेदैर्न तपसा ज्ञानेन न चेत्यया शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा भक्त्या त्वनन्यया शक्य अहमेवं विधो विना ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप मत्कर्म कृन्मत् परमो मद्भक्तसङ्गवर्जित निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव यः स मामेति पाण्डव ॐ तत्सत् श्रीमद्भगवीता सुनिषत्ति विद्यायां दोषा कृष्णा विश्वलोकवर्षयोगादशः।